भरतः पुनः पितुः पुरं गतः। तत्र भ्रातृकृते राज्यं बिभर्ति स्म। रामः तु चित्रकूटम् अत्यजत्। दण्डक आख्यं च वनं जायया सह अगच्छत्। तत्र वने बहून् विराध आदीन् असुरान् आहन्। एकदा तु शूर्पणखा नाम राक्षसी रामस्य आश्रमम् आगता। तानि वचांसि वीरम् अब्रवीत्। मम भर्ता भव इति।